श्रीदुर्गायै नमः। श्रीदुर्गा सप्तशती अथाष्टमोऽध्यायः ध्यानम्। अरुणाकरुणातरङ्गिताक्षी द्रुतपाशाङ्कुशबाणचापहस्ताम् रहमित्येव विभावये भवानी। ॐ ऋषिरुवाच, चण्डे च निहते दैत्ये, मुण्डे च विनिपातिते, बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः। ततः कोपपराधीन चेता शुम्भः प्रतापवान् उद्योगं सर्वसैन्यानां दैत्यानामादिदेशः। अद्य सर्वबलैर्दैत्या षडश्चीतिरुदायुधाः, कम्बूनाय चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः। कोटिवीर्याणि पञ्चाश दसुराणाङ्कुलानि वै, शतङ्कुलानि धौम्राणान् निर्गच्छन्तु ममाज्ञया। कालकादौर्हृदा मौर्याक् कालकेयास्तथा सुराः, युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम। इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः, निर्जगाम महासैन्य सहस्रैर्बहुभिर्लुतः। आयान्तै चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम्, ज्यास्वनैः पूरयामास धरणीगगनान्तरम्। ततस्तिंहो महानाद मतीव कृतवान् नृप, घण्टास्वनेन तन्नाद मम्बिका चोपबृंहयत्। धनुर्ज्या सिंहघण्टानान् नादापूरितदिङ्मुखा, निनादैर्भीषणैः काली जिज्ञे विस्तारितानना। तन्निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् देवी सिंहस्तथा काली सरोषैः परिवारिताः। एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् भवायामरसिंहाना मतिवीर्यबलान्विताः। ब्रह्मेश गुह विष्णूनां तथेन्द्रस्य च शक्तयः, शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकायययुः यस्य देवस्य यद्रूपै यथाभूषणवाहनम् तद्वदेव हि तच्छक्ति रसुरान्योधुमाययौ हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः आयाता ब्रह्मणशक्तिर् ब्रह्माणि साभिधीयते माहेश्वरी वृषारूढा त्रिशूलवरधारिणी महाहिवलया प्राप्ता चन्द्ररेखा विभूषणा कौमारी शक्तिहस्ता च मयूरवरवाहना योधुमभ्याययौ दैत्यानम्बिका गुहरूपिणी तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता शङ्खचक्रगदाशार्ङ्ग खड्गहस्ताभ्युपाययौ यज्ञवाराहमतुलं रूपया बिभ्रतो हरेः शक्तिस्साप्याययौ तत्र वाराहीं बिभ्रती तनुम् नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः वज्रहस्ता तथैव इन्द्री गजराजोपरिस्थिता प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ततः परिवृतस्ताभिरीशानो देवशक्तिभिः हन्यन्तामसुरा शीघ्रं मम प्रीत्याह चण्डिकाम् ततो देवी शरीरात् विनिष्क्रान्तातिभीषणा चण्डिका शक्तिरत्युग्रा शिवा शतनिनादिनी सा चाह धूम्रजटिल मीशानमपराजिता दूतं त्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ब्रूहि शुम्भनिशुम्भै च दानवावति गर्वितौ ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः त्रैलोक्यमिन्द्रो लभतान् देवासन्तु हविर्भुजः यूयं प्रयात पातालै यदि जीवितुमिच्छथ बलावली पादथ चेद् भवन्तो युद्धकाङ्क्षिणः तदा गच्छत तृप्यन्तु मच्छिवाः पिशितेन वः यतो नियुक्तो दौत्येन तया देव्या शिवस्वयं शिवदूतीति लोकेऽस्मिं ततः साख्यातिमागता तेऽपि श्रुत्वा वचो देव्या शर्वाख्यातं महासुराः अमर्षा पूरिता जग्मुर् यत्र कात्यायनी स्थिता ततः प्रथममेवाग्रे शरशक्त्युष्टि वृष्टिभिः ववर्षुरुद्धतामर्षास्तान् देवीमवरारयः सा च तान् प्रहितान् बाणाय चूलशक्तिपरश्वधान् चिच्छेदलीलयाद्मात धनुर्मुक्तैर्महेशुभिः तस्याग्रतस्तथा काली शूलपातविदारितान् खट्वाङ्गपोथितां शारीन् कुर्वती व्यचरत्तदा कमण्डलुजलाक्षेप हतवीर्यान् हतौजसः ब्रह्माणि चाकरोच्छत्रून् येन येन स्मधावति माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी दैत्याय जघानकौमारी तथा शक्त्यातिकोपना ऐन्द्रीकुलिशपातेन शतशो दैत्यदानवाः पीतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः वाराहमूर्त्या न्यपतंश् चक्रेण च विदारिताः नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् नारसिंही च चाराजौ नादापूर्णदिगम्बरा चण्डाट्टहासैरसुरा शिवदूत्यभिदूषिताः पेतुः पृथिव्यां पतितांस्तांश्च खादाथ सा तदा इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् दृष्ट्वाभ्युपायैर्विविधैर्नेषुर्देवारिसैनिकाः पलायनपरान् दृष्ट्वा दैत्यान्मातृगणार्दितान् योदुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः समुत्पतति मेदिन्यान् तत्प्रमाणस्तदासुरः युयुधे सगदा पाणिरिन्द्रशक्त्या महासुरः ततश्चैन्द्रीस्ववज्रेण रक्तबीजमताडयत् कुलिशेनाहतस्याशु बहुशुश्रावशोणितम् समुत्तस्थुस्तथो योधास्तद्रूपास्तत्पराक्रमाः यावन्तः पतितास्तस्य शरीराग्रक्तबिन्दवः तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः ते चापि युयुधुस्तत्र पुरुषारक्तसम्भवाः समं मातृभिरत्युग्र शस्त्रपातातिभीषणम् पुनश्च वज्रपातेन क्षतमस्य शिरो यदा ववाह रक्तं पुरुषास्ततो जाता सहस्रशः वैष्णवी समरे चैनै चक्रेणाभिजघानः गदया ताडयामास ऐन्द्रीतमसुरेश्वरम् वैष्णवी चक्रभिन्नस्य रुधिरस्रावसम्भवैः सहस्रशो जगद्व्यापन् तत्प्रमाणैर्महासुरैः शक्त्या जघानकौमारी वाराही च तथासिना माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् स चापि गदया दैत्यसर्वा एवाहनत्पृथक् मातृकोपसमाविष्टो रक्तबीजो महासुरः तस्याः तस्य बहुधा शक्तिशूलादिभिर्भुवि पपातयो वै रक्तौघस्तेनासैच्छतशोऽसुराः तैश्चासुरासृक्सम्भू रसुरैस्सकलै जगत् व्याप्तमासीत्ततो देवाभयमाजग्मुरुत्तमम् तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरा उवाच काली चामुण्डे विस्तीर्ण वदनं कुरु मच्छत्र पात संभूतान् रक्तबिन्दून् महासुरान् रक्तबिन्दो प्रतीच्छत्वं वक्त्रेणानेन वेगिना भक्षयन्ति चररणे तदुत्पन्नान् महासुरान् एवमेष क्षयन् दैत्यः क्षीणरक्तो गमिष्यति भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे इत्युक्त्वा तान् ततो देवी शूलेनाभिजघानतम् मुखेन काली जगृहे रक्तबीजस्य शोणितम् ततो सा वा जघानाथ गदया तत्र चण्डिकाम् न चास्या वेदनाय चक्रे गदापातोऽल्पिकामपि तस्याः तस्य देवात्तु बहुशुश्रावशोणितम् यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति मुखे समुद्गता ये स्या रक्तपातान् महासुराः तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् देवी शूलेन वज्रेण बाणैरसिभिर्रुष्टिभिः जघानरक्तबीजन्तै चामुण्डा पीतशोणितम् सपपातमहीपृष्ठे शस्त्रसङ्घसमाहतः नीरक्तश्च महीपालरक्तबीजो महासुरः ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप तेषां मातृगणो जातो ननर्तासुं मदोद्धतः इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये रक्तबीजवधू नामाष्टमोऽध्यायः।